नमश्चण्डिकायै मार्कण्डेय उवाच यद्गुह्यम् परमम् लोके सर्वरक्षाकरम् नृणाम् यन्न कस्यचिदाख्यातम् तन्मे ब्रूहीतामः ब्रह्मोवाच अस्ति गुह्यतमम् विप्र सर्वभूतोपकारकम् देव्यास्तु कवचम् पुण्यम् तच्छृणश्व महामुने प्रथमम् शैलपुत्री च द्वितीयम् ब्रह्मचारिणी तृतीयम् चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् पञ्चमम् स्कन्दमातेति षष्ठम् काद्यायनीति च सप्तमम् कालरात्रीति महागौरीति चाष्टमम् नवमम् सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अवधिनादह्यमानस्तु शत्रुमध्ये गतोरणे विषमे दुर्गमे चैव भयार्ताः शरणम् गताः न तेषाम् जायते किञ्चिदशुभम् रणसङ्कटे नापदम् तस्य पश्यामि शोकदुःखभयम् नहि यैस्तु हत्या स्मृता नूनम् तेषाम् वृद्धिः प्रजायते ये त्वाम् स्मरन्ति देवेशि रक्षसे तान्न संशयः प्रेतसंस्थातु चामुण्डा वाराहि महिषासना ऐन्द्री गजसमारूढा वैष्णवी गरुडासना माहेश्वरी शारूढा कौमारी शिथिवाहना लक्ष्मी पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंससमारूढा सर्वाभरणभूषिता इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः दृश्यन्ते रथमारूढा देव्यक्रोधसमाकुलाः शङ्खम् चक्रम् गदाम् शक्तिम् फलम् च मुसलायुधम् खेटकम् तोमरम् चैव परशुम् पाशमेव च कुन्तायुधम् त्रिशूलम् च शार्गमायुधमुत्तमम् दैत्यानाम् देहनाशाय भक्तानामभयाय च दारयन्त्यायुधानीत्थम् देवानाम् चैताय वै नमस्ते सु महारौद्रे महाघोरपराक्रमे महाभये महोत्साहे महाभयविनाशिनि त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भयवर्धिनि प्राच्याम् रक्षतु मामैत्री आग्नेयामग्निदेवता दक्षिणेव तु वाराहि नैरृत्याम् खड्गधारिणि प्रतीच्याम् वारुणी रक्षेत् वायव्याम् मृगवाहिनि पुरीच्याम् पातु कौमारी ऐशान्याम् शूलधारिणि पूर्वम् ब्रह्माणि मे रक्षेदस्ताद् वैष्णवी तथा एवम् दश दिशो रक्षेत् चामुण्डा शववाहना जया मे चागतः पातु विजया पातु पृष्ठतः अजिता वाम पार्श्वे तु दक्षिणे चापराजिता शिखामुद्योदिनी रक्षेमामूर्ध्निव्यवस्थिता मालादनीलाटे च भूरक्षे यशस्विनि त्रिनेत्रा च भुवोर्मध्ये यमघण्टा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनि कपोलौ कालिका रक्षेत् कर्णमूले शाङ्करी नासिकायाम् सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृतकलायुपायाम् च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकाम् चित्रघण्टा च महामाया च तालुके कामाक्षी चिमुखम् रक्षेद्वाचम् मे सर्वमङ्गला ग्रीवायाम् भद्रकाली च पृष्ठवंशे धनुर्धरी नीलग्रीवा बहिः कण्ठे नलिकाम् नलकूपरी सन्धयो खड्गिनी रक्षेद्बाहू मे वज्रधारिणी हस्तयो दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च नखानशूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी सां रक्षेन्महादेवी मनःशोकविनाशिनि इतरे ललिता देवी उदरे शूलधारिणि नागौ च कामिनी रक्षेद्गुह्यम् गुह्येश्वरी तथा पूतनाकामिका मेढ्रम् गुरे महिषवाहिनि कट्याम् भगवती रक्षेज्जानुनी विन्ध्यवासिनि जङ्घे महाबला रक्षेत् सर्वकामप्रदायिनि गुल्फयो नारसिंही च पादपृष्ठे तु दैयसि पादाङ्गुलीषु श्रीरक्षे पादादस्तलवासिनि नन्दाङ्गमुष्णाकराणि च केशांशोकेशिनि तोहमुपेषोपेरीतजम् वागीश्वरी तथा रक्तमज्जावसा मांसान्यस्थिरमेधांसि पार्वती अन्त्राणि कालरात्रिश्च पित्तम् च मुकुटेश्वरी पद्मावती पद्मकोशे कपे चूडामणिस्तथा ज्वालाग्नीज्वालामवेद्या सर्वसन्दिषु शुक्रम् ब्रह्माणि मे रक्षेच्छायाम् छत्रेश्वरी तथा अहङ्कारम् मनो बुद्धिम् रक्षेन्मे धर्मधारिणि प्राणापानौ तथा व्यानौ उदानम् च समानकम् वज्रहस्ता च मे रक्षेत् प्राणम् कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वम् रजस्तमश्चैव रक्षेन्नारायणी सदा आयुः रक्षतु वाराही धर्मम् रक्षतु वैष्णवी यशक्तिरपि च लक्ष्मी च धनविद्याम् च चक्रणि गोत्रमिन्द्राणि मे रक्षेत् पशून्मे रक्ष चण्डिके पुत्रान् रक्षेन्महालक्ष्मी भार्याम् रक्षतु भैरवी बन्धानम् सुवधा रक्षेन्मार्गम् क्षेमकरी तथा राजद्वारे महालक्ष्मीर्विजया सर्वदा स्थिरा रक्षाहीनम् तु यस्थानम् वर्जितम् कवचेन तु तत्सर्वम् रक्ष मे देवी जयन्ती पापनाशिनि पदमेकम् न गच्छेतु विदीक्षेच्छुभमात्मनः कवचेनावृतो नित्यम् यत्र यत्रैव गच्छति तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः यम् चिन्तयते कामम् तन्तम् प्राप्नोति निश्चितम् परमैश्वर्यमतुलम् प्राप्स्यते भूतले पुमान् निर्भयो जायते मर्त्यः सङ्ग्रामेषु पराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् इदम् तु देव्याः कवचम् देवानामपि दुर्लभम् यः पठे प्रयतो नित्यम् त्रिसन्ध्यम् श्रद्धयान्वितः दैवीकला भवेत्तस्य त्रैलोक्येषु पराजितः जीवेत् वर्षशंसाक्रमपमृत्युः नश्यन्ति व्याधयः सर्वे लूटा विस्फोटकादयः स्थावरम् जङ्गमम् चैव कृत्रिमम् चापि यद्विषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराखेचराश्चैव जलजाश्चोपदेशिकाः सहजाकुलजा माला डाकिनी शाकिनी तथा अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः गृहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेताला कूष्माण्डा भैरवादयः दृश्यन्ति दर्शनार्थस्य कवचे संस्थते मानो नतिर्भवेद्राज्ञस्ते यो वृद्धिकरम् परम् यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपे सप्तशतीम् चण्डीम् कृत्वा तु कवचम् पुरा यावद्भूमण्डलम् दत्ते सशैलवनकानम् तावत् तिष्ठलिमेदिन्याम् सदते पुत्रपौत्री देहान्ते परमम् सहनम् यत्सुरैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यम् महामाया प्रसारतः लभते परमम् रूपम् शिवेन सह मोदते
जगदम्बार्पणमस्तु नमश्चण्डिकायै मार्कण्डेय उवाच जयम् श्रीमङ्गला काली भद्रकाली कपालिनि दुर्गा क्षमा शिवा धात्री स्वाहा सदा नमोऽसुते जयपुरम् देवि चामुण्डे जय भूतार्तिहारिणि जय सर्वगते देवि कालरात्रि नमोऽसुते मधुरैरवमित्रावि विधात्रि वरदे नमः रूपम् देहि जयम् देहि यशो देहि शो जहि महिषासुरनिर्नाशि भक्तानाम् सुभदे नमः रूपम् देहि जयम् देहि यशो देहि शोजयिवदे देवि चण्डमुण्ड विनाशिनि रूपम् देहि जयम् देहि यशो देहि शोजहि शुभमस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि रूपम् देहि जयम् देहि यशो देहि शोजहि वन्दिताङ्गयुगे देवि सर्वसौभाग्यदायिनि रूपम् देहि जयम् देहि यशो देहि शोजहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि रूपम् देहि जयम् देहि यशो देहि शोजहि ृतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे रूपम् देहि जयम् देहि यशो देहि शोजहि सुलभ्यो भक्तिपूर्वम् त्वाम् चण्डिके व्याधिनाशिनि रूपम् देहि जयम् देहि यशो देहि शोजहि चण्डिके सततम् ये त्वामर्चयन्ति य भक्तिता रूपम् देहि जयम् देहि यशो देहि शोजहि देहि सौभाग्यमारोग्यम् देहि मे परमम् सुखम् रूपम् देहि जयम् देहि यशो देहि शोजहि विदेहि त्रिषुताम् नाशम् विदेहि बलमुच्चकैः रूपम् देहि जयम् देहि यशो देहि शोजहि विदे దేహి దేవి కళ్యాణం విదేహి పరమాంశ్రయం రూపం దేహి జయం దేహి యశో దేహిశోచై సురాసురశిరోగత్మా నిగృష్టచరణయంబికే రూపం దేహి జయం దేహి యశో దేహిశోచై విద్యావంతం యశస్వంతం లక్ష్మీవంతం జనం కురు రూపం దేహి జయం దేహి యశో దేహిశోచై ప్రచండ దైత్య దర్పఘ్నే చండికే ప్రణదాయ మే రూపం దేహి జయం దేహి యశో దేహిశోచై చతుర్భుజే చతుర్వక్రోస్తుతే పరమేశ్వరి రూపం దేహి జయం దేహి యశో దేహిశోచై కృష్ణేన సంస్తుతే దేవి శక్రత్యాసనాంబికే రూపం దేహి జయం దేహి యశో దేహిశోచై హిమాచల సుతానాథో సంస్తుతే పరమేశ్వరి రూపం దేహి జయం దేహి యశో దేహిశోచై ఇంద్రాణి ప్రసదభావో పూజితే పరమేశ్వరి రూపం దేహి జయం దేహి యశో దేహిశోచై దేవి ప్రచండ దోర్దండో దైత్యదర్ప వినాశిని రూపం దేహి జయం దేహి యశో దేహిశోచై దేవి భక్తజనోద్దామో దత్తానందోదయంబికే రూపం దేహి జయం దేహి యశో దేహిశోచై పత్నీ మనోరమాం దేహి మనోవృత్తానుసారిణీం కారిణీం దుర్గ సంసారో సాగరస్య పురోద్భవాం ఇదం స్తోత్రం పఠిత్వా మహాస్తోత్రం పఠేంద్ర సర్వసప్తశక్తి సంధ్యా పరమాత్మోతి సంపదాం జగదంబా నమశ్చండికాయై మార్కండేయ ఉవాచ విశుద్ధ జ్ఞాన దేహాయ త్రివేదీతి విచక్షుషే శ్రేయ ప్రాప్తి నిమిత్తాయ నమస్సో మార్గధారణే సర్వమేతద్విజానీయాన్ మంత్రాణామభికీలకం సోపి క్షేమమవాప్నోతి సతతం జాప్యతత్వరః సిద్ధ్యంత్యుచ్చాటనాదీని వస్తూని సకలాన్యపి ఏతేన స్తువతాం దేవీ స్తోత్రమాత్రేణ సిద్ధ్యతి నమంత్రో నౌషధం తత్ర న కించిదపి విద్యతే వినా జాప్యేన సిద్ధ్యేత సర్వముచ్చాటనాదికం సర్వకార్యాణ్యపి సిద్ధ్యంతి లోకశంకా మీమాంహరా కృత్వా నిమంత్రయామాస సర్వమేవమిదం శుభం స్తోత్రం వైచండికాయాస్తు తచ్చ గుప్తం చకారసా సమాప్తిరన చ పుణ్యస్య తావ్యతావన్నియంత్రణా సోపి క్షేమమవాప్నోతి సర్వమేవం న సంశయా కృష్ణాయాం వా చతుర్దశ్యాం వా సమాయిత దదాతి ప్రతిగృహాదీనాన్యతైషా ప్రసీదతి యదితం రూపేణ కీలేన మహాదేవేన కీలితం యోగిశీలాం విధాయేనాం నిత్యం చ ప్రతిసంస్కృతం సస్య సర్వసోపి గంధర్వో జాయతేంద్ర న చైవాప్యస్య భయం క్వాపి ఇహ జాయతే నాపమృత్యువశం జాతి మృతో మోక్షమవాప్నుయా జ్ఞాత్వా ప్రారభ్య కురుతీతో న కుర్వాణో వినశ్యతి తతో జ్ఞాత్వైవ సంపన్నమిదం ప్రారభ్యతే పులైః సౌభాగ్యాదిన యత్కించిత్ దృశ్యతే లలనాదనే తత్సర్వం తత్ప్రసాదేన తేన జాప్యమిదం శుభం క్షణైస్తు జాప్యమానేస్మిన్ స్తోత్రే సంపత్తిరుచ్యకైః భవద్దేవ సమగ్రాపి తతః ప్రారభ్యమేవ తత్ ఐశ్వర్యం యత్ప్రసాదేన సౌభాగ్యారోగ్య సంపదః శత్రుహాని ప్రభో మోక్షస్తూయసే సాధ కింజలైః జగదంబార్పణమస్తు అస్య శ్రీ నవారణవ మంత్రస్య బ్రహ్మ విష్ణు రుద్రా విషయ గాయత్రిష్ణువనిష్ఠువచ్చందాంసి మహాకాళీ మహాలక్ష్మీ మహాసరస్వత్యో దేవతీజం హ్రీం శక్తి హ్రీం కీలకం శ్రీ మహాకాళీ మహాలక్ష్మీ మహాసరస్వతీ బ్రహ్మ విష్ణు రుద్ర ఋషిభ్యో నమ శిరసి గాయత్రిష్ణువనిష్ఠుందోభ్యో నమ ముఖే మహాకాళీ మహాలక్ష్మీ మహాసరస్వతీ దేవతాభ్యో నమ ఐం బీజాయ నమ గుహ్యే హ్రీం శక్తయే నమ పాదయో హ్రీం కీలకాయ నమ నాభౌ ఓం ఐం అంగుష్ఠాభ్యాం నమ ఓం హ్రీం దర్శనీభ్యాం నమ ఓం హ్రీం మధ్యమాభ్యాం నమ ఓం చాముండాయ అనామికాభ్యాం నమ ఓం విచ్చే కనిష్ఠికాభ్యాం నమ ఓం ఐం హ్రీం హ్రీం చాముండాయ విచ్చే కరతల కరపృష్టాభ్యాం నమ ఓం ఐం హృదయాయ నమ ఓం హ్రీం శిరసే స్వాహ ఓం హ్రీం శిఖాయ వృషణ ఓం చాముండాయ కవచాయ హుం ఓం విచ్చే నేత్రత్రయాయ ఔషధ ఓం ఐం హ్రీం క్లీం చాముండాయ విచ్చే అస్త్రాయ ఫట ఓం ఐం నమః శిఖాయాం ఓం హ్రీం నమః దక్షిణనేత్రే ఓం క్లీం నమః వామనేత్రే ఓం చాం నమః దక్షిణకర్ణే ఓం ముం నమః వామకర్ణే ఓం డాం నమః దక్షిణనాసాపుటే ॐ यै नमः वामनासा कुटे ॐ दिं नमः मुखे ॐ चैं नमः गुह्ये ॐ ऐं प्राच्यै नमः ॐ ऐं आग्नेयै नमः ॐ ह्रीं दक्षिणायै नमः ॐ ह्रीं नैऋत्यै नमः ॐ क्लीं प्रतीच्यै नमः ॐ क्लीं वायव्यै नमः ॐ चामुण्डायै उदीच्यै नमः ॐ चामुण्डायै ऐशान्यै नमः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः खण्डलम् चक्रगदेषु चापरिगांशूलम् भुषुण्डेषु सह शङ्खम् सन्दलिङ्करेषु नयनाम् सर्वाङ्गभूषावृताम् नीलाश्मद्युतिमास्य पादर्शकाम् सेवे महाकालिकाम् यामस्तौ स्वपिते हरौ कमलजो हन्तुम् मधुम् कैटवम् अक्षस्रपरशुम् गदेषु पुलिशम् पद्मम् धनुष्कुण्डिकाम् दण्डम् शक्तिमसिम् च चर्म जलजम् खण्डासुराभाजनम् शूलम् पाशसुदर्शने च जगतीम् हस्तैः प्रसन्नाम् सेवे सैरवमर्दिनीमिह महालक्ष्मीम् ससौजस्थिताम् घण्टाशूलहलानि शङ्खमुसले चक्रम् धनुःसायकम् हस्ताब्जैर्दतीम् गनान्तविलसच्छीतांशतुल्यप्रभवाम् गौरीदेह समुद्भवाम् त्रिजगदामालारभूतामः पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यादिनी ऐं ह्रीं अक्षमालकायै नमः महामाये सर्वशक्तिस्वरूपिणि चतुर्वर्गस्वैन्यस्तस्मान्मे सिद्धिदा भव अविघ्नम् कुरु माले त्वम् गृह्णामि दक्षिणेकरे जपकाले च सिद्ध्यर्थम् प्रसीदमसिद्धये गुह्यादिगुह्यगोप्त्री त्वम् गृहाणास्मत्कृतम् जपम् सिद्धिर्भवतु मे देवी तत्प्रसादान्महेश्वरी जगदम्बार्पणमस्तु नमश्चण्डिकायै विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवती विष्णो रघुराम् तेजसप्रभो ब्रह्मोवाच त्वम् स्वाहा त्वम् सुधा त्वम् हि वषट्कारस्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका सुधा अर्धमात्रा सुधा नित्या यानुच्चार्या विशेषता त्वमेव सन्ध्या सावित्री त्वम् देवि जननी परा त्वयि तद्धार्यते विश्वम् त्वयि तत्सृज्यते जगत् त्वयि तत्पाल्यते देवी त्वमत्सन्ते च सर्वदा विशिष्ट्योपसृष्ट्यरूपा त्वम् स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतोऽस्य जगन्वये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवती महादेवी महासुरी प्रभृतिस्त्वम् च सर्वस्य गुणत्रय विभागिनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वम् श्रीत्वमीश्वरी त्वम् हि त्वम् बुद्धिर्बोधलक्षणा लज्जा पुष्टिस्तथा तुष्टिस्त्वम् शान्ति क्षान्तिरेव च खड्गिनी शूर्णी घोरा गदिनी चक्रिणीरः शङ्किनी चापि नीबाणौ शुण्डी परिधायुः सौम्या सौम्यतराशेष सौम्येभ्य स्मृतिसुन्दरी परापराणाम् परमा त्वमेव परमेश्वरि यच्च किञ्चिद्वचिद्वस्तु सदसद्भाकिलाग्निरे तस्य सर्वस्य या शक्तिः सा त्वम् किम् सूर्यसेतरायत्पात्यो जगत् सोऽपि निद्रावशम् नीतः कस्वाम् सोऽतुमेश्वरः विष्णुशरीरग्रहणमहमीशानयेव च कालिदासेयोस्तस्वाम् कस्तोतुम् शक्तिमान् भवेत् सात्वमित्थम् प्रभावै स्वैरुदारैर्देवि संस्थिता मोहयैकौ दुरादर्शावसरौ मृदुकैटभौ प्रबोधम् च जगत्स्वामी नियतामस्तिको लघु बोधश्च विरामस्य हन्तुमेतौ महास्वरौ जगदमारणमस्तु खड्गिनी शूर्णी घोरा गदिनी चक्रिणी तथा शङ्किनी चापिणी बाणौ कुशुण्डी परिधायुधा अङ्गुष्ठाभ्यां नमः शूलेन पायिनो देवी पाहि खड्गेन चाम्बिके
घण्टास्वनेन भर्पाहि चापज्यानि स्वनेन च तर्जनीभ्याम् नमः प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तदेश्वरि मध्यमाभ्याम् नमः सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चाद्यर्थघोराणि तैरक्षास्मास्तथाभुवम् अनामिकाभ्याम् नमः खड्गशूलकदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान्नरक्ष सर्वथा कनिष्ठिकाभ्याम् नमः सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तु ते करतरकरपृष्ठाभ्याम् नमः खड्गिनी शूलिनी घोरा गजिनी चक्रिणी तथा शङ्किनी चापि दीवाणौ उषुण्णी बहिरायुधा हृदयाय नमः शूलेन पाहि नो देवी पाहि खड्गेन चाम्बिके घण्टास्वनेन पाहि चापज्यानि स्वनेन च शिरसे स्वाहा प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यान्तदेश्वरि शिखायै विषड सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चाध्यर्थघोराणि तैरक्षास्मासदाभवन् कवचायहुम् खड्गशूलकदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वदा नेत्रत्रयाय वौषड सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहि नो देवी दुर्गे देवी नमोऽस्तु ते असराय खड विद्युद्धाम् समप्रभाम् मृगवृतिस्कन्दस्थिताम् भीषणाम् कन्यावेः करबालकेटविलसद्धसा विरासेविताम् हस्तैश्चक्रदासिखेट विशिखाम् चापम् गुणम् तर्जनीम् विभ्राणामनदात्मिकाम् शशिराम् दुर्गाम् त्रिनेत्राम् भजे
अस्य श्रीब्रह्मचरित्रस्य ब्रह्माक्षी
महाकाली देवता गायत्री छन्दा नन्दा शक्तिः रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदस्वरूपम् महाकाली प्रीत्यर्थे प्रथमचरित्रपाठे विनियोगा खड्गम् चक्रगदेषु चापरिधानम् शूलम् मुषुण्डिम् शिरः शङ्खम् सन्दतीम् करैश्रिनयनाम् सर्वाङ्गभूषाकृताम् नीलाश्वद्युतिमास्य पादशशवाम् सेवे महाकालिकाम् यामस्तौ स्वपिते हरौ कमलयो हन्तुम् मधुम् कैटवम् नमश्चण्डिकायै ॐ ऐं मार्कण्डेयौ वाचो सावर्णे सूर्यधनयो यो मनु कथते श्रमः निशामय रघुपतिम् विस्तराद्गदतो मम महामायानुभावेन यथा मनुभन्तरादिता सपूर्वमहाभागः सावर्णे सदयोरे स्वारमक्षेन्दरे पूर्वम् चैत्रवंशसमुद्भवा सुरतो नाम राजाभूत् समस्ये क्षितिमण्डले तस्य पालयतः सम्यक् प्रजापुत्रा निवौरसा बभूवश्चत्रभो भूपा कोला विध्वंसिनस्तदा तस्य तैरवद्युद्धमतिप्रबलदण्डिना न्यूनैरपि तैर्युद्धे कोला विध्वंसिभिर्जितः ततः स्वपुरमायातो निजदेशाधिपो भवत् आक्रान्तस्य महाभागस्तैस्तदा प्रबलार्भिः अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः कोशो बलम् चापरितम् तत्रापि स्वपुरे कृता ततो मृगया व्याजेन कृतस्वाम्यस्य भूपतिः एकाकीहयमावय्य जगाम गहनम् वनम् स्वप्राश्रमद्राक्षी विजवर्यस्य मे कृता प्रशान्तश्वापदाकीर्णम् मुनिशिशोकशोभितम् तस्थौ कञ्चित् सकालम् च मुनिना तेन सत्कृतः इतश्चेतनश्च विचरम् तस्मिन् मुनिवराश्रमे स्वचिन्तयत्तदा तत्र मम त्वाकृष्टचेतनः मत्पूर्वैः पालितम् पूर्वम् मया एनम् पुरम् हितत मदृतैस्तैर्धर्मतः पाल्यते न वा न जाने सप्रधानो मे शूरास्मि सदा मदः मम वैरशम् यातः कान् भोगानुपलस्यते ये ममानुगता नित्यम् प्रसादधनभोजनैः अनवृत्तिम् कुर्वन्तेऽद्य कुर्वन्त्यन्यो मयि कृता असम्यग्वेशीलैस्ते कुर्वद्भिः सततम् व्ययम् सञ्चितस्तोऽपि दुःखेन क्षयम् कोशो गमिष्यति एतच्चान्यच्च सततम् चिन्तया मास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकम् ददर्शितः
सपृष्टस्तेन कस्त्वम् भो हेतुश्च गमने प्रका सशोकैव कस्मात्त्वम् दुर्मना इव लक्ष्यसे इत्याकर्णवचस्तस्य भूपदे प्रणयोदितम् प्रत्युवाच सदम् वैश्य प्रश्रया वनतो नृपम् वैश्य उवाच समाजिर्नाम वैश्योः मृत्पन्नो धनिनाम् कुले पुत्रदारैर्निरस्तश्च धनलोभादसादुभे विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् वनमव्यागतो दुःखी निरस्तश्चाप्तबन्धुभे सोऽहम् नवेन्दि पुत्राणाम् कुशलाकुशलात्मकाम् प्रवृत्तिम् सुजनानाम् च ताराणाम् चात्र संस्कृता किम् न तेषाम् गृहे क्षेममक्षेमम् किम् स साम्प्रतम् कथम् ते किम् न सन्निवृत्ता दुर्वृत्ता किम् नु मे सुताः राजोवाचो यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिवर्धनैः तेषु किमु भवस्नेहमनुबध्नाति मानसम् वैश्य उवाच एवमेतद्यथा प्राह भवानस्मद्गतम् वश न करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्यपितृस्नेहम् न लुब्धैर्विरा स्वजन हार्दम् च हार्दिलेष्वेव मे मनः किमेतन्नादिजानामि जानन्नपि महामते यदेम प्रवणम् चित्तम् विगुणेष्वपि बन्धुषु तेषाम् कृते मे निःश्वासो मनस्यम् च जायते करोमि किम् यन्न मनस्तेष्वपि निष्ठुरम्